इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। भारतम् अद्य समारप्स्यमाणस्य मुम्बई नगर्यां जियो वर्ल्ड कन्वेंशन सेंटर इत्येतस्मिन् स्थले प्रथमस्य ऑडियो विजुअल एंटरटेनमेंट वेब्स इत्येतस्य शिखर सम्मेलनस्य आतिथ्यं विधास्यति। प्रधानमन्त्रिणा नरेन्द्र मोदिना इदं शिखर सम्मेलनम् उद्घाटयिष्यते। अयं चतुर्दिवसीय कार्यक्रम श्रव्य दृश्य मनोरंजनोद्योगानां भविष्ये चर्चार्थं एकं वैश्विकं मंचं प्रदास्यति। अस्य सम्मेलनस्य प्रमुख विषयो विद्यते कनेक्टिंग क्रिएटर्स कनेक्टिंग कंट्रीज इति। प्रधानमन्त्री नरेन्द्र मोदी क्रिएट इन इंडिया चैलेंज इत्येतस्मात् चितैः द्वात्रिंशत् संख्यकैः नवोन्मेषकैः सह संवादं साधयिष्यति। प्रधानमन्त्री नरेन्द्र मोदी ह्यः प्रगति इत्येतस्य षड्चत्वारिंशत्तमस्य संस्करणस्य अध्यक्षतां वहितवान्। एतस्मिन् सम्मेलने केन्द्रं राज्यप्रशासनानि च सम्मिल्य सक्रिय शासने ससमयं च कार्यान्वयनार्थं आईसीटी इत्येतस्य आधारितस्य बहुविध प्रारूपगत मञ्चस्य समीक्षा जाता। उपवेशनावधौ अष्ट महत्वपूर्ण परियोजनानां समीक्षा अपि विहिता, यासु तिस्रः मार्ग परियोजनायाः, द्वे च रेलवे जलपोतस्थानक जलमार्ग क्षेत्राणां च परियोजनाः समाविष्टाः सन्ति इति। विभिन्नेषु राज्येषु केन्द्रशासित प्रदेशेषु च विस्तृतानां एतासां परियोजनानां सम्पूर्णं व्ययं 90,000 कोटि रूप्यकाणि यावदस्ति। प्रधानमन्त्रिणा निर्दिष्टं यत् मन्त्रालयैः विभागैश्च सुनिश्चीयते यत् लाभार्थिनाम् अभिज्ञानं बायोमेट्रिक इत्येतस्य जीवमितीयाधारितस्य प्रामाणीकरणस्य च माध्यमेन सत्यापितं भवेदिति। आगामि जनगणनायां जातिगत गणनां समावेष्टुं प्रशासनेन निर्णयः निर्णीतः। प्रधानमन्त्रिणः नरेन्द्र मोदिनः अध्यक्षतायां राजनीतिक कार्य मन्त्रिमण्डल समित्या अस्मिन् विषये निर्णयः एषः प्रतिपादितः। वार्ताहरान् संसूचयता सूचना प्रसारण मन्त्रिणा अश्विनी वैष्णवेन सूचितं यत् जाति गणना अग्रगामि जनगणनायां समाविष्टा भवेदिति।
कांग्रेस और इंडी गठबंधन के दलों ने जाति जनगणना के विषय को केवल अपने राजनीतिक लाभ के लिए उपयोग किया। जहां कुछ राज्यों ने यह काम सुचारू रूप से संपन्न किया है, वहीं कुछ अन्य राज्यों ने राजनीतिक दृष्टि से और गैर पारदर्शी ढंग से सर्वे किया है। इन सभी स्थितियों को ध्यान में रखते हुए कि हमारा सामाजिक ताना बाना राजनीति के दबाव में न आए, जातियों की गणना एक सर्वे के स्थान पर मूल जनगणना में ही सम्मिलित होनी चाहिए।
अत्रावधौ केन्द्रीय गृहमन्त्री अमितशाहः आगामि जनगणनायां जातिगणनायाः समावेशनस्य निर्णयं सामाजिक समानतायाः तथाश्च प्रत्येकस्य वर्गस्य अधिकारान् प्रति दृढप्रतिबद्धतां सन्देशरूपेण प्रतिपादितवान्। अत्रावधौ केन्द्रीय मन्त्री शिवराजसिंह चौहानः प्रतिपादितवान् यत् जातिगणना एषा पूर्णपारदर्शितया सह सम्पद्यताम् इति। पहलगाम आतंक्याक्रमणस्य अनन्तरं भारतं पाकिस्तान विमान सेवाभ्यः स्ववायुपथम् अवरुद्धम् अकरोत्। मे मासस्य 23 दिनांक पर्यन्तं एषः प्रतिबन्धः प्रवर्तयिष्यति। नागरिकोड्डयन मन्त्रालयेन सूचितं यत् अस्मिन् काले पाकिस्तान देशीयानां विमान संस्थानानां स्वामित्वेन अनुबन्धितेन वा संचालितैः सैन्य विमानैः सह प्रचालकैः वा संचालितानि वायुविमानानि सम्मिलितानि सन्ति इति। बांग्लादेशस्य सर्वोच्च न्यायालयेन पूर्वस्कानुभिक्षोः बांग्लादेशस्य सम्मिलितो सनातनी जागरण जोटे इत्येतस्य प्रवक्तुः चिन्मय कृष्णदासस्य देशद्रोह प्रकरणस्य प्रतिभूतिकरणस्य प्रसंगे उच्चन्यायालयस्य आदेशः स्थगितः। सर्वोच्चन्यायालयस्य याचिका विभागस्य न्यायाधीशः न्यायमूर्तिः रेजोल हक ए इत्येषः ह्यः उच्चन्यायालयेन तस्य विमुक्तेः कासाञ्चित् होरानाम् अनन्तरं राज्य अधिवक्त्रा कृतस्य अभ्यर्थनस्य श्रवणानन्तरम् आदेशः दत्तः। आईपीएल इत्येतस्यां क्रिकेट स्पर्धा मालिकायाम् अद्य रात्रौ चेन्नई को सुपर किंग्स दलेन क्रीडा भविष्यति इति वार्ताः।